गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र व्याप्य अव्याप्य वृत्तित्वम् इति तत्र गुणः कीदृशः तत्र रूपम् इति गुणः इति अस्माकं मूलविषयः तस्य तत्र रूपम् इति तत्र व्याप्य वृत्तित्वम् अस्ति वा अथवा अव्याप्य वृत्तित्वम् अस्ति वा इति प्रश्नः तर्हि तत्र तस्य अन्वेषणार्थं वयं तत्र कपिसंयोगः इति उदाहरणं स्वीकृतवन्तः तत्र कपिसंयोगः तत्र वृक्षे वर्तते अपि तत्र कपिसंयोगस्य अभावः अपि वृक्षे वर्तते नाम तत्र संयोगः कुत्रचित् वर्तते वृक्षे अपि तस्मिन्नेव वृक्षे तत्र कपिसंयोगः संयोगस्य अभावः अपि वर्तते इति अस्माभिः दृष्टम् अपि तत्र अवच्छेदकं किं तत्र वृक्षे तत्र अधिकरणताद्वयम् अस्ति इति चिन्तितवन्तः नाम तत्र अधिकरणता तत्र संयोगस्य संयोगे तत्र अधीयता अस्ति तया निरूपित अधिकरणता तत्र वृक्षे अस्ति अपि संयोगस्य अभावः अपि वृक्षे अस्ति इति कृत्वा तत्र अपि अधिकरणता वर्तते अतः तत्र अधिकरणता द्वयम् अस्ति तयोः मध्ये कः भेदः भवेत् भेदः कः इति तत्र प्रदर्शयितुं तत्र अवच्छेदकस्य उपयोगः अस्ति इति वयं दृष्टवन्तः अत्र उक्तमासीत् तत्र विद्याधर्यं नाम तत्र यः अवच्छेदकम् अत्र अस्ति सः तद् अवच्छेदकं नाम तत्र मूलदेशम् अथवा अग्रदेशं तत् अवच्छेदकम् अथवा अवच्छेदकत्वं यत् मूलदेशे अस्ति अथवा तत्र अग्रदेशे अस्ति तत् अवच्छेदकत्वं भिन्नम् अस्ति कस्मात् इत्युक्ते यत् तत्र अवच्छेदकत्वं घटत्वे अस्ति नाम घटत्वे अवच्छेदकम् अस्ति कस्य अवच्छेदकं नाम प्रतियोगितायाः नाम घटाभावः अस्ति घटाभावे तत्र अनियोगिता अस्ति अनियोगितानिरूपितप्रतियोगिता तत्र घटे वर्तते नाम घटस्य आनयनेन तत्र घटाभावः नश्यति विरोधः तयोः मध्ये तत्र घटत्वम् इति एव तत्र तत्र प्रतियोगितायाः अवच्छेदकं तत्र अस्तु तत्र नूतनतया के के आगतवन्तः तत्र मृणनी भगिनी नमस्कारः नरसिंहगिरे महोदय नमस्कारः
नमस्ते महोदय
नमस्कारः नीता भगिनी नमस्कारः
नमस्कारः
नमस्कारः नमस्कारः अस्तु तर्हि तत्र तर्हि अस्माकं अद्यतनविषयः अस्ति नाम तत्र घटाभावः घटाभावे अनियोगिता अस्ति तत्र घटाभावस्य तत्र प्रतियोगी कः तत्र योगेन्द्रमहोदय तत्र प्रतियोगी कः अस्ति घटाभावस्य
घटाभावस्य प्रतियोगी घटः अस्ति
घटः अस्ति तर्हि कुत्र कुत्र तत्र नाम तत्र प्रतियोगिता तत्र घटः प्रतियोगी नाम प्रतियोगिता कुत्र अस्ति
घटे प्रतियोगिता अस्ति घटाभावे अनुयोगिता अस्ति
अनुयोगिता अस्ति समीचीनं हा तर्हि तत्र इदानीं तत्र यत्र घटः अस्ति तत्र घटत्वम् अपि अस्ति खलु अपि तत्र केवलं तत्र इदानीं मम पार्श्वे एकः घटः अस्ति तत्र कुत्रचित् घटाभावः अस्ति इति चिन्तयामः इदानीं मम पार्श्वे घटः अस्ति अहं मम घटम् आनयामि तदा तत्र घटाभावः नश्यति वा तत्र नाम तत्र अत्र भूतलम् इति अस्ति अत्र घटः नास्ति कोऽपि घटः नास्ति इदानीम् अहं मम गृहात् घटनम् आनयामि, अत्र आनयामि, तदा तत्र घटाभावः नश्यति खलु?
घटाभावः नश्यति.
तर्हि प्रतियोगिता तत्र यः घटः मम पार्श्वे अस्ति तत्र अपि तत्र प्रतियोगिता अस्ति खलु, मम घटे अपि अस्ति खलु? भवतः तत्र गृहे अपि घटः अस्ति इति चिन्तयतु, यदि भवान् तं घटम् आनयति तदापि एषः घटाभावः नश्यति, तर्हि तत्रापि प्रतियोगिता वर्तते खलु? हा, तर्हि तत्र कुत्र कुत्र प्रतियोगिता वर्तते इत्युक्ते यत्र यत्र
घटाभावः वर्तते,
न यत्र यत्र घटाभावः वर्तते तत्र प्रतियोगिता नास्ति खलु, तत्र परस्परविरोधः खलु?
यत्र घटः अस्ति,
यत्र घटः अस्ति तत्र तत्र प्रतियोगिता वर्तते,
प्रतियोगिता अस्ति.
अपि तत्र यत्र यत्र घटः अस्ति तत्र घटत्वमपि वर्तते खलु? तर्हि प्रतियोगिता कुत्र कुत्र अस्ति? यत्र घटत्वम् अस्ति तत्र प्रतियोगिता निश्चयेन अस्ति, यत्र प्रतियोगिता अस्ति तत्र निश्चयेन घटत्वम् अस्ति वा?
यत्र घटः अस्ति तत्र निश्चयेन घटत्वम् अपि अस्ति.
यत्र प्रतियोगिता अस्ति
तत्र घटत्वं निश्चयेन,
यत्र निश्चयेन अस्ति. तर्हि यत्र प्रतियोगिता अस्ति तत्र घटत्वम् अस्ति, तर्हि तत् तर्हि तत्र यदि तत्र वयं लिखामः तत्र प्रतियोगिता इति लिखामः, यत्र प्रतियोगिता अस्ति तत्र निश्चयेन घटत्वम् अस्ति, अपि यत्र घटत्वम् अस्ति तत्र प्रतियोगिता अपि अस्ति. नाम तत्र लोके, तत्र लोके तत्र एतद् चित्रं मास्तु, किन्तु तत्र लोके, तत्र लोके लोकः बृहान् बृहान् लोकः इति चिन्तयतु, तत्र अत्र प्रतियोगिता अस्ति चेत् तत्रापि घटत्वम् अस्ति, अत्र प्रतियोगिता अस्ति चेत् तत्रापि घटत्वम् अस्ति, अत्र घटत्वम् अस्ति चेत् तत्र प्रतियोगिता अपि अस्ति खलु? तर्हि तत्र अवच्छेदकं घटत्वम् अस्ति, तत् कीदृशम् इत्युक्ते वयम् उक्तवन्तः तत्र अन्योन अनतिरिक्तवृत्तित्वम् इति, तत्र अन्योन अनतिरिक्तवृत्तित्वम् अस्ति तत्र घटत्वय अपि प्रतियोगिता तयोः मध्ये अन्योन अनतिरिक्तवृत्तित्वम्. तर्हि तत्र अन्य कोऽपि वदेत् तत्र समीचीनं महोदय, तत्र अन्य कोऽपि इदानीं तत्र तर्हि तत्र अस्तु शोभा भगिनी, तत्र अन्योन अनतिरिक्तवृत्तित्वं तत्र घटत्वम् अपि प्रतियोगिता तयोः मध्ये अस्ति इत्युक्ते कः अर्थः?
अन्यून अनति
अनतिरिक्त
एकवारं पठित्वा वदामि महोदय.
अस्तु अस्तु अस्तु.
कुत्र वर्तते? घटः भूतले घटाभावस्य प्रतियोगिता घटे, सा च अवच्छेद्या तस्याः प्रतियोगितायाः अवच्छेदकं घटे विद्यमानं घटत्वं. घटत्वम् अवच्छेदकम् इति कृत्वा तस्मिन् घटत्वे अवच्छेदकं वर्तते,
तच्च अवच्छेदकम्
क्षमतां घटत्वे घटत्वे अवच्छेदकत्वं वर्तते, तच्च अवच्छेदकत्वम् अन्यूना अतिरिक्त अन्यूना अनतिरिक्तवृत्तित्वरूपम् इति उच्यते. किमित्युक्ते अवच्छेदकत्वम्.
इदानीम् इदानीम् अस्तु समीचीनं भगिनि, तर्हि तत्र तथैव आरम्भं कुर्मः. तर्हि तत्र घटः भूतले अस्ति, घटः भूतले अस्ति, अस्तु. तर्हि घटः भूतले अस्ति इति चिन्तयामः, एतत् सर्वम् अस्तु. तर्हि घटः भूतले अस्ति, भूतलः अस्ति, तत्र घटः अस्ति, घटः अस्ति. इदानीं घटाभावस्य प्रतियोगिता,
अग्रे
घटाभावस्य प्रतियोगिता घटे अस्ति. नाम घटे प्रतियोगिता अस्ति, नाम घटस्य अनयनेन घटाभावः नश्यति.
आम्
प्रतियोगिता नाम विरोधः, नाम
विरोधः घटाभावस्य विरोधः,
घटाभावः विरुद्धौ. तर्हि तत्र विरोधभावः एव तत्र अनियोगिता प्रतियोगिता इति स्वीकृतम् अस्माभिः, खलु? इदानीं प्रश्नः तत्र कुत्र अस्ति प्रतियोगिता, अतः तस्य प्रतियोगितायाः अवच्छेदकं किमस्ति?
घटे विद्यमानं घटत्वम्
इति अस्ति.
तस्याः प्रतियोगितायाः अवच्छेदकं घटे विद्यमानं घटत्वम् इति.
घटत्वम् इति नाम कुत्र कुत्र प्रतियोगिता वर्तते, यत्र घटः,
यत्र यत्र घटत्वं वर्तते
तत्र एव
घटस्य प्रतियोगिता अपि वर्तते,
अभावस्य प्रतियोगिता, अभावनिरु प्रतियोगिता वर्तते.
अपि च अग्रे अवच्छेदकं तत्र
घटत्वम् अवच्छेदकं किमस्ति अत्र, घटत्वम् अथवा प्रतियोगिता किमस्ति अवच्छेदकं?
घटत्वं प्रतियोगिता एव अवच्छेदकं तत्र.
न
प्रतियोगितायाः अवच्छेदकं घटे विद्यमानं
घटत्वं.
तर्हि घटे विद्यमानं घटत्वं प्रतियोगितायाः अवच्छेदकं भवति. अपि च घटत्वम् अवच्छेदकम् इति कृत्वा तस्मिन् घटत्वे अवच्छेदकत्वं वर्तते.
अस्तु अस्तु, इदानीम् एकनिमिषं भगिनि. अस्तु अस्तु, सोपानेन गच्छामः. तर्हि घटत्वम् अवच्छेदकं, खलु?
आम्.
प्रतियोगिता किम् अस्ति तर्हि?
अवच्छेद्यता भवति,
अवच्छेद्या भवति, अवच्छेद्या,
अवच्छेद्या भवति.
अपि घटत्वे किम् अस्ति?
घटत्वे अवच्छेदकत्वं भवति.
तर्हि घटत्वे अवच्छेदकत्वम् अस्ति. प्रतियोगितायां किम् अस्ति?
अवच्छेद्यता अस्ति.
समीचीनम्. उत्तमं भगिनि. इदानीम् अग्रे सरामः.
तच्च तस्मात् आरभ्य तच्च अवच्छेदकत्वम् इति. तच्च अवच्छेदकत्वम् अन्यून अनतिरिक्त वृत्तित्वरूपम् इति उच्यते. तत्र तदेव तत् च अवच्छेदकत्वम् इति, यत् घटे अवच्छेदकत्वं घटे घटत्वे वर्तते,
अवच्छेदकत्वम् अवच्छेदकत्वं घटत्वे वर्तते. समीचीनम्.
घटे घटत्वं घटत्वे अवच्छेदकत्वं यस्य अन्य किं तत्र
निरूपितम् अवच्छेदकत्वं कीदृशम् अस्ति? अन्योन अनतिरिक्तवृत्तित्वरूपम्.
अन्योन अनतिरिक्तवृत्तित्वरूपं किमर्थमिति चेत् यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं, यत्र यत्र च घटत्वं तत्र तत्र प्रतियोगिता, अनेन घटत्वं प्रतियोगिता च तयोः अन्यून अनतिरिक्तवृत्तित्वम् अस्ति इति. यथा इदानीं दृष्टवन्तः तत्र यत्र यत्र घटः वर्तते तत्र तत्र घटत्वं वर्तते, अपि च घटाभावस्य प्रतियोगिता वर्तते. घटत्वम् इति अवच्छेदकं भूत्वा तस्य अवच्छेदकत्वं अस्ति घटत्वे, अपि च अवच्छेद्यता इति प्रतियोगितायाम् अस्ति. तयोः तत्र सम्बन्धः अवच्छेदकत्व अवच्छेद्यतासम्बन्धः अन्यून अनतिरिक्तवृत्तित्वरूपम् इति वक्तुं शक्नुमः, महोदय?
सम्बन्धः नाम तत्र कीदृश अवच्छेदकत्वम् इत्युक्ते तत्र अन्यून अनतिरिक्तवृत्तित्वरूपम् इति अवच्छेदकत्वस्य एकः प्रकारः
प्रकारः
अन्यून अनतिरिक्तवृत्तित्वरूपम् अस्ति एतद् अवच्छेदकत्वं नाम यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम् नाम हा नाम अवच्छेद्या अस्ति प्रतियोगिता अवच्छेदकम् अस्ति घटत्वम् इदानीं यदि तत्र एतादृशं भवेत् नाम तत्र घटत्वम् अत्र केवलम् अत्र अस्ति तत्र चित्रं दृश्यते वा तत्र रक्तवर्णे लिखितं तत्र केवलम् अत्र घटत्वं वर्तते इति चिन्तयतु किन्तु तत्र यदि तत्र प्रतियोगिता अत्र सर्वत्र अस्ति चेत् तत्र किं भवति घटत्वस्य देशः क्षेत्रं न्यूनं भवति प्रतियोगिता अत्र सर्वत्र नीलरूपक्षेत्रे वर्तते किन्तु घटत्वं केवलं तत्र रक्तवर्णे वर्तते चेत् वयं किं वदामः तत्र न्यूनवृत्तिः अस्ति तस्य न्यूनवृत्तित्वं नाम न्यून क्षेत्रे वर्तते तस्य वृत्तित्वं केवलं लघुक्षेत्रे अस्ति सर्वत्र नास्ति इति वदामः यतोहि केवलं रक्तवर्णक्षेत्रे एव अस्ति नीलवर्णक्षेत्रं तत्र बृहत् अस्ति तादृशम् आसीत् चेत् वयं वदामः न्यूनवृत्तित्वं किन्तु तादृशं नास्ति खलु अतः अन्यून इति वदामः नाम एतस्य क्षेत्रं न्यूनं नास्ति
इत्युक्ते तत्र प्रतियोगितायाः क्षेत्रं
हा तत्र प्रतियोगिता अपि तत्र घटत्वं त्यजामः तत्र केवलम् उदाहरणार्थं तत्र हा तत्र एतद् उदाहरणम् अग्रे अपि तस्य उपयोगः भवति तत्र यत्र धूमः स्मोक् वर्तते तत्र वह्निः भवति वा अग्निः भवति वा
भवति
हा किन्तु यत्र अग्निः अस्ति तत्र सर्वत्र धूमः भवति वा
न भवति
हा तर्हि धूमस्य क्षेत्रं न्यूनम् अस्ति वह्निः क्षेत्रं बृहत् अस्ति
सत्यं
हा तत्र वयं वदामः न्यूनवृत्तित्वं धूमस्य न्यूनवृत्तित्वं कस्य अपेक्षया वह्निः क्षेत्रस्य अपेक्षया
हा इत्युक्ते तत्र घटत्वस्य बृहत् वृत्तित्वम् अस्ति प्रतियोगितायाः न्यूनं वृत्तित्वम् अस्ति
न इदानीं तत्र यदि तत्र एकं तत्र भेदः वर्तते एकम् अन्यस्मिन् अस्ति चेत् नाम यत्र धूमः अस्ति तत्र निश्चयेन
वह्निः अस्ति हा किन्तु यत्र वह्निः अस्ति तत्र
धूमस्य क्षेत्रं लघु अस्ति वह्निः क्षेत्रं बृहत् अस्ति यत्र धूमः नास्ति तत्रापि वह्निः भवितुम् अर्हति तर्हि तत्र धूमस्य क्षेत्रम् एतादृशम् अस्ति चेत् वह्निः क्षेत्रं बृहत् अस्ति अतः तत्र धूमस्य क्षेत्रं न्यूनम् अतः तत्र न्यूनवृत्तित्वं धूमस्य भवेत् तत्र अन्यूनवृत्तित्वं तयोः मध्ये नास्ति यतोहि एकस्य क्षेत्रं न्यूनम् अस्ति अन्यस्य क्षेत्रं बृहत् अस्ति
किन्तु अत्र तादृशं नास्ति यत्र घटत्वं तत्र
तादृशं नास्ति
यत्र घटत्वं तत्र
तत्र विपरीततया वदामः नाम तत्र वह्निः क्षेत्रं धूमस्य क्षेत्रस्य अपेक्षया न्यूनम् अस्ति वा
नास्ति
तर्हि तत्र वह्निः अतिरिक्तक्षेत्रे नाम धूमस्य क्षेत्रं विहाय अतिरिक्त नाम अन्यत्र धूमक्षेत्रं विहाय अपि वर्तते अथ तत्र अतिरिक्तवृत्तित्वं वह्निः अस्ति
अस्मिन्
यदि धूमः वह्निः स्वीकुर्मः तत्र धूमस्य वृत्तित्वं न्यूनम् अस्ति वह्निः क्षेत्रम् अतिरिक्तवृत्तित्वम् अस्ति वह्निः धूमस्य न्यूनवृत्तित्वम् अस्ति
सत्यं
तत्र धूमः हा एतत् सर्वं त्यजामः तर्हि तत्र इदानीं तत्र एकम् अन्यत् पेज् स्वीकुर्मश्चेत् प्रायशः समीचीनं भवेत् क्षम्यताम् अस्तु किन्तु तत्र तत्र धूमः एतत् धूमः इति चिन्तयतु धूमस्य क्षेत्रं वह्निः क्षेत्रं तु बृहत् अस्ति वह्निः तु बहुत्र वर्तते अत्र धूमः नास्ति अतः धूमस्य क्षेत्रम् अस्ति न्यून धूमस्य न्यूनवृत्तित्वम् अस्ति इति वदामः वह्निः वृत्तित्वम् अतिरिक्तवृत्तित्वम् अस्ति इति वदामः धूमक्षेत्रं तस्य अपेक्षया किन्तु अत्र किमस्ति
अन्यून अनतिरिक्त अन्यून अनतिरिक्त
अनतिरिक्त नाम एकस्य क्षेत्रं बृहत् इति अन्यस्य क्षेत्रं तत्र लघु इति न वक्तुं शक्नुमः समानमस्ति वृत्तित्वं यस्य यत्र एकस्य वृत्तित्वम् अस्ति तत्र एव अन्यस्य अपि अस्ति
आं महोदय
हा अतः इदानीं वदतु किमर्थम् इति चेत्
अनेन किमर्थम् इति तत्र इति चेत् यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं
यदि केवलं तावत् वदामः किं भवति तदा यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम् इति वदनेन वयं किं वदामः
तत्र न्यूनता भवितुम् अर्हति इति वा
हा खलु नाम प्रतियोगितायाः क्षेत्रं
बृहत् इति भाति तत्र
हा यतोहि यत्र प्रतियोगिता अस्ति तत्र घटत्वं निश्चयेन वर्तते निश्चयेन वर्तते हा अतः घटत्वस्य क्षेत्रं तस्य अपेक्षया प्रतियोगितायाः क्षेत्रं बृहत् भवेत्
बृहत् भवति इति अर्थः भवति तावदेव
किन्तु यदि अग्रिमवाक्यम् अपि वदामः यत्र
यत्र यत्र च घटत्वं तत्र तत्र प्रतियोगिता इति वद उक्तत्वात् असमानरूपं भवति तत्र समान किं
इदानीं तत्र यत्र घटत्वं तत्र प्रतियोगिता यत्र प्रतियोगिता तत्र
तत्र घटत्वम् इति
घटत्वम् अतः तत्र तयोः क्षेत्रं समानम् इति
समानं भवति
इति सिद्धं भवति अतः तत्र भागद्वयं तयोः तत्र तत्र तयोः तत्र अर्थः भिन्नः इति कृत्वा यदि द्वयमपि वदामः तदा अर्थः समानम् इति अत्र क्षेत्रस्य क्षेत्रं समानम् इति अवगच्छामः एकस्य वदनेन न अथवा श्रवणेन तद् न भवति अस्तु
अतः अनेन अनेन घटत्वं प्रतियोगिता च तयोः अन्यून अनतिरिक्तवृत्तित्वम् अस्ति इति वक्तुं शक्नुमः या च अवच्छेदकता वर्तते घटत्वे सा अन्यून अनतिरिक्तवृत्तित्वरूपा इति उच्यते अवच्छेदकता घटत्वे वर्तमाना अवच्छेदकता अन्यून अनतिरिक्तवृत्तित्वरूपा इति
तत्र पूर्वं वृत्तित्वम् इति उक्तम्
यतोहि तत्र अवच्छेदकता इति उक्तत्वात् तस्य विशेषणं भूत्वा
तावदेव अतः तत्र नूतनं किमपि नास्ति अवच्छेदकत्वम् अन्यून अनतिरिक्तवृत्तित्वरूपम् अस्ति इति एव अस्तु समीचीनं भगिनि धन्यवादः
धन्यवादः महोदय
हा अस्तु समीचीनम् अस्तु अग्रे अन्य कोऽपि तत्र इदानीम् अग्रे पठतु तर्हि तत्र राजी भगिनी अग्रे पठति वा
केवलमहं शृणोमि
अस्तु 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 सरि अस्तु भगिनि अस्तु पद्मा भगिनि अग्रे नास्ति वा अस्तु तर्हि तत्र तर्हि नीता भगिनी अग्रे पठति वा
किन्तु यः कपि संयोगः भवति वृक्षे तत्र वृक्षे सर्वत्र नास्ति तत्र अवच्छेद्या अस्ति वृक्षनिष्ठ अधिकरणता। किं निरूपित अधिकरणता? कपिसंयोगनिष्ठ आधेयता निरूपिता अधिकरणता। केवल अधिकरणता नास्ति, अत्र प्रश्नः उदेति तस्याः अधिकरणतायाः अन्यून अनतिरिक्त वृत्तित्व रूप अवच्छेदकत्वं कस्यचित् धर्मस्य इति वक्तुं शक्यते वा? यथा वृक्षत्वम् अन्यून अनतिरिक्त वृत्तित्व रूप अवच्छेदकत्वं वृक्षत्वं भवितुम् अर्हति न वा इति द्रष्टव्यम्। वृक्षत्वं वृक्षे सर्वत्र अस्ति वा? अपरेषु वृक्षेषु अपि वर्तते वा? तच्च वृक्षत्वं कपिसंयोगनिष्ठ आदेयता निरूपिता अधिकरणतायाः अवच्छेदकं भवितुम् अर्हति वा? यत्र यत्र वृक्षत्वं तत्र तत्र कपिसंयोगः भवति वा? वृक्षत्वं वृक्षस्य मूले अपि अस्ति, अग्रभागे अस्ति, अपरेषु वृक्षेषु अपि अस्ति, तत्र तत्र कपिसंयोगनिष्ठ आधेयता निरूपिता अधिकरणता अस्ति किम्? नास्ति। अतः वृक्षत्वस्य अन्यून अनतिरिक्त वृत्तित्व रूप अवच्छेदकत्वं न सम्भवति। अत्र अस्माकं यत् प्रश्नः अस्ति चिन्तनस्य, रूपं व्याप्यवृत्ति वा अव्याप्यवृत्ति इति विषय, तत् प्रथमतः वयं कपिसंयोगस्य उदाहरणं दृष्टवन्तः। तत्र कपिसंयोगस्य कपिसंयोगः यदि अग्रदेशे, वृक्षस्य अग्रदेशे वर्तते, तत् कपिसंयोगः मूले नास्ति, इत्युक्ते मूले कपिसंयोग अभावः वर्तते, अग्रदेशे कपिसंयोगः वर्तते। इत्युक्ते तत्र एकमेव वृक्ष, तत्र आधेयताद्वयं वर्तते, क्षम्यताम् अधिकरणताद्वयं वर्तते, अधिकरणताद्वयम्, एक तु कपिसंयोगस्य अधिकरणता, कपिसंयोग अभावस्य अधिकरणता। अनन्तरं इत्युक्ते यः कपिसंयोगः भवति वृक्षे, तत्र कपिसंयोगः, तत् कपिसंयोगः वृक्षे सर्वत्र नास्ति, इत्युक्ते मूले नास्ति, अग्रदेशे अस्ति। अनन्तरं तत्र अवच्छेद्या अस्ति वृक्षनिष्ठ अधिकरणता, तत्र वृक्षनिष्ठ अधिकरणता वर्तते, तत् तत्र अवच्छेद्या इति दत्तमस्ति, अवच्छेद्या अस्ति वृक्षनिष्ठ अधिकरणता। यत् अधिकरणता, वृक्षनिष्ठ अधिकरणता, तत् किं निरूपित अधिकरणता अस्ति इति प्रश्नः उदेति। तत् किं निरूपित अधिकरणता अस्ति यत् वृक्षनिष्ठ अधिकरणता अस्ति चेत्, तत् कपिसंयोगनिष्ठ आधेयता निरूपिता अधिकरणता अस्ति। तत्र वृक्षे केवल अधिकरणता अस्ति इति वक्तुं न शक्नुमः। वृक्षे यत् अधिकरणता अस्ति, तत् कपिसंयोगनिष्ठ आधेयता निरूपिता अस्ति इति स्पष्टम्। अनन्तरं प्रश्नः अस्ति, तस्याः अधिकरणतायाः कपिसंयोगनिष्ठ आधेयता निरूपिता अधिकरणतायाः अन्यून अनतिरिक्तवृत्तित्वं रूप अवच्छेदकत्वं कस्यचित् धर्मस्य वक्तुं शक्यते वा? इदानीं कपिसंयोगनिष्ठ आधेयता निरूपिता अधिकरणता वृक्षे अस्ति इति स्पष्टम्। तस्याः अधिकरणतायाः अन्यून अनतिरिक्त
तत्र तस्याः अवच्छेदकं किमपि अथवा अवच्छेदकः धर्मः कोऽपि अस्ति वा इति प्रश्नः प्रथमतया। अपि अनन्तरं सः धर्मः कीदृशः, सः अवच्छेदकः धर्मः कीदृशः भवेत्?
प्रथमतः तु तस्य अस्याः अधिकरणतायाः कोऽपि अवच्छेदकधर्मम् अस्ति वा इति प्रश्नः. तत् अनन्तरं यथा वृक्षत्वम् इति उदाहरणमस्ति,
नाम यत्र तत्र धर्मः भवति, यथा तत्र घटे विद्यमानः धर्मः कः?
घटे विद्यमानः धर्मः अस्ति घटत्वम्.
घटत्वं तथैव अत्रापि कोऽपि धर्मः अस्ति वा वृक्षे यः अवच्छेदकः भवितुम् अर्हति, अपि सः तस्मिन् अवच्छेदके विद्यमान अवच्छेदकत्वं कीदृशं भवेत्?
तस्य चिन्तनमस्ति.
न कस्यचित् धर्मस्य नाम तत्र वयं कस्य अन्वेषणं कुर्वन्तः स्मः? अस्तु, अधिकरणतायाः अवच्छेदकम् अस्ति न वा इति प्रश्नः खलु. किन्तु तत्र अस्तु, तत्र कोऽपि धर्मः अस्ति, सः धर्मः अवच्छेदकः धर्मः इति स्वीकर्तुं शक्नुमः, किन्तु तेन पर्याप्तम् अस्ति वा? अस्माकम् अपेक्षा अन्य कापि अपेक्षा अस्ति वा?
अत्र यथा अवच्छेदकं घटत्वे अवच्छेदकं घटत्वम् इति अवच्छेदकं तथैव अत्र कोऽपि अवच्छेदकम् अस्ति वा
इति समीचीनम् अस्माकं प्रश्नः खलु,
इति अस्माकं प्रश्नः.
तर्हि तत्र सः अवच्छेदकम् अथवा अवच्छेदकधर्मः कीदृशं भवेत्? नाम अवच्छेदकत्वे अवच्छेदकत्वं कीदृशं भवेत्? अन्योन
हा, यथा घटे वयं दृष्टवन्तः तत् अवच्छेदकत्वम् अन्यून अनतिरिक्त वृत्तित्वं रूपम् अस्ति, तथैव अत्र कोऽपि धर्मः अधिकरणतायाः कोऽपि धर्मः वर्तते वा? तथैव
समीचीनं,
तस्यापि वृत्तित्वं कथं भवेत् इति प्रश्नः.
समीचीनं, इदानीम् अग्रे.
यथा वृक्षत्वं,
अत्र वृक्षत्वं किमर्थं स्वीकृतं? यतोहि वृक्षे विद्यमानः धर्मः कः?
धर्मः अस्ति वृक्षत्वम् इति. वृक्षे विद्यमानः
घटत्वम् आसीत्, अत्र वृक्षत्वं इति. तत्र वयं तत्र झटिति भवति खलु, घटे घटत्वं धर्मः अस्ति अवच्छेदकधर्मः, तर्हि अत्र अधिकरणता कुत्र अस्ति? वृक्षे अस्ति, तर्हि वृक्षत्वं भवेत् खलु धर्मः अवच्छेदकधर्मः.
यथा घटत्वम् अवच्छेदकम् अस्ति, घटत्वे अवच्छेदकता वर्तते, तथैव वृक्षत्वे यत् अवच्छेदका अवच्छेद वृक्षत्वम् अवच्छेदकम् अस्ति वा, तत्र वृत्ति अन्यून अनतिरिक्तवृत्तित्वं तत्र वर्तते वा वृक्षत्वे इति प्रश्नः.
हा, समीचीनम्.
अनन्तरं वृक्षत्वं वृक्षे सर्वत्र अस्ति वा इति प्रश्नः. अपरेषु वृक्षेषु अपि वर्तते वा? अत्र
प्रथमप्रश्नः, वृक्षत्वं वृक्षे सर्वत्र अस्ति वा?
सर्वत्र अस्ति वा? यथा घटे घटत्वं सर्वत्र अस्ति, तथैव वृक्षे वृक्षत्वं सर्वत्र अस्ति.
सर्वत्र अस्ति, समीचीनम्.
अपरेषु वृक्षेषु अपि वर्तते वा? वर्तते. अपरेषु वृक्षेषु अपि वर्तते, मूलभागे अपि वर्तते, मध्यभागे अपि वर्तते. तत्र सर्वेषु स्थलेषु वृक्षेषु सर्वेषु वृक्षेषु तत् वर्तते वृक्षत्वम्. अनन्तरं तत् च वृक्षत्वं कपिसंयोगनिष्ठ आदेयता निरूपिता अधिकरणतायाः अवच्छेदकं भवितुम् अर्हति वा? इदानीं यथा वयं दृष्टवन्तः घटत्वम् अवच्छेदकं भवितुं घटत्वम् अवच्छेदकम् अस्ति, तथैव यत् वृक्षे विद्यमानधर्म वृक्षत्वं कपिसंयोगनिष्ठ आदेयता निरूपिता अधिकरणतायाः अवच्छेदकं भवितुम् अर्हति वा न वा इति प्रश्नः. अनन्तरं तत् वृक्षत्वम् अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वम् अस्ति वा न वा एतादृशचिन्तनं, तत्र यत्र यत्र वृक्षत्वं तत्र तत्र कपि संयोगः भवति वा? तत् नास्ति. यत्र यत्र वृक्षत्वं तत्र तत्र कपिसंयोगः नास्ति, यतोहि तत् कपिसंयोगः अग्रभागे वर्तते, मूलभागे न वर्तते। परन्तु
अपि तत्र तत्र कपिसंयोगः इदानीं तत्र एकम् एकः वृक्षः अस्ति, तस्य उपरि तत्र उपरि भागे अग्रभागे कपिः अस्ति खलु, किन्तु अन्य कोऽपि वृक्षः तत्र अन्यस्मिन् स्थले अन्यम् अन्यः वृक्षः अस्ति इति चिन्तयतु, तत्र वृक्षत्वम् अस्ति खलु, किन्तु कपिसंयोगः तत्र नास्ति खलु,
नास्ति कपिसंयोगः तत्र नास्ति, भवेत् तत्र एव भवेत् इति न, नास्ति। वृक्षत्वं वृक्षस्य मूले अपि अस्ति, अग्रभागे अपि अस्ति, अपरेषु वृक्षेषु अपि अस्ति। तत्र तत्र कपिसंयोगनिष्ठ आदेयता निरूपिता अधिकरणता अस्ति किं, तत् नास्ति। किन्तु यत्र यत्र कपिसंयोगनिष्ठ आदेयता निरूपिता अधिकरणता अस्ति, इत्युक्ते यथा वृक्षत्व सर्वेषु वृक्षेषु अस्ति, तथैव कपिसंयोगनिष्ठ आदेयता निरूपिता अधिकरणता तादृशी नास्ति। अतः वृक्षत्वस्य अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं न सम्भवति। यथा घटत्व स्वीकृत्य तस्य अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं वयं स्थापितवन्त, तथैव वृक्षे विद्यमानधर्मस्य वृक्षत्वस्य अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं नास्ति इति स्पष्टमस्ति।
अस्तु, समीचीनं भगिनि। हा अस्तु, अन्य कोऽपि तत्र स्वशब्दैः वदेत् तर्हि तत्र
नमस्ते। जि तत्र म्यूट् निष्कासने किञ्चित् विलम्बः जातः, इदानीं
तर्हि भगिनि भवती एव स्वशब्दैः वदतु भगिनि तत्र किम् अवगतम् इति। हा
अस्तु, तत्र वयम् इदानीं प्रकृतविषयः अस्ति, वृक्षे कपिः अस्ति परन्तु अग्रभागे अस्ति मूले नास्ति, अतः कपिसंयोगः अग्रभागे अस्ति, कपिसंयोग अभावः मूले अस्ति। तत्र वयम् उदाहरणार्थं घटसंयोगः भूतले अस्ति इति उदाहरणं वयं स्वीकुर्मः, तत्र घटः भूतले अस्ति परन्तु घट अभावः समानसमये भूतले न भवति। यदा घट अभावस्य प्रतियोगिता तत्र घटे अस्ति, यतः वयं किमपि घटम् आनयामः चेत् प्रतियोगिता अभावः नश्यति, अतः घटे प्रतियोगिता अस्ति इति वदामः। परन्तु अत्र तत्र प्रतियोगिता घटं व्याप्य तिष्ठति, अतः यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अस्ति इति वयं वदामः। अतः
समीचीनं भगिनि, अपि
यतः प्रतियोगिता तत् व्याप्य तिष्ठति इति कारणेन अतः अन्यून अनतिरिक्त वृत्तित्वरूपः तत्र अस्ति। परन्तु अस्माकं
समीचीनं भगिनि, समीचीनं भगिनि, सः एकः अंशः, अन्यः अंशः केवलम् एकस्मिन् घटे तत्र प्रतियोगिता नास्ति, किन्तु सर्वेषु घटेषु प्रतियोगिता वर्तते,
प्रतियोगिता अस्ति,
यतोहि तत्र यदि वयं घटाभावः इति चिन्तयामः तत्र एतस्य घटस्य अभावः इति न चिन्तयामः खलु, अस्माकं मनसि घटः नास्ति इति एव अस्ति, किन्तु नाम यं घटम् अहं श्वः दृष्टवान् सः घटः अत्र नास्ति इति तादृशचिन्तनं नास्ति, केवलं न कोऽपि घटः अत्र वर्तते इति एव, तदेव घटाभावः खलु।
आम्
नाम तर्हि केनापि तत्र कस्यापि घटस्य आनयनेन अभावः नश्यति इति कृत्वा प्रतियोगिता यत्र यत्र घटः तत्र तत्र प्रतियोगिता वर्तते, अतः घटत्वम् इति धर्मः तत्र अवच्छेदकधर्मः भवति।
परन्तु अस्मिन् प्रकृतिविषये विषयः किञ्चित् भिन्नमस्ति. तत्र वृक्षे वृक्षत्वं भवति, अन्यवृक्षे अपि वृक्षत्वं भवति. अतः वृक्षस्य अभावः अन्यवृक्षे आनयनेन इति कदापि न भवति. तत्र कपि
किन्तु किन्तु भगिनि इदानीं तत्र अवच्छेद्य तु तत्र प्रतियोगिता नास्ति. इदानीम् अवच्छेद्य अस्ति अधिकरणता.
प्रतियोगिता नास्ति, तदेव न नश्यति खलु. अतः प्रतियोगिता नास्ति तत्र वृक्षे.
विषयः प्रतियोगिता इति विषयः नास्ति अत्र. कस्य अवच्छेदकम् अपेक्षितम् अत्र? अधिकरणतायाः अवच्छेदकम्.
अवच्छेदकं वृक्षे वृक्षत्वं पूर्णतया व्याप्य तिष्ठति, परन्तु कपिः अव्याप्य तिष्ठति. मूले अग्रभागे अस्ति, मूले नास्ति. तत्र मूले अपि कपिः पूर्णतया व्याप्य तिष्ठति वा इति प्रश्ने सति तदपि नास्ति. अतः कपिसंयोगनिष्ठ आदेयतानिरूपित अधिकरणता एव तत्र अवच्छेदकः. तद् वृक्षस्य अग्रभागः एव अवच्छेदकः. परन्तु अवच्छेद्या
भवेत् इति भवेत्, किन्तु वृक्षत्वं तु कदापि न भवति अवच्छेदकम्.
आम्, वृक्षत्वं कदापि न भवति.
यतोहि
वृक्षे वृक्षत्वं पूर्णतया अस्ति, परन्तु कपिः तु अग्रभागे एव अस्ति.
अपरेषु वृक्षे अपि वृक्षेषु अपि वृक्षत्वं वर्तते.
वर्तते, आम्.
कपिसंयोगः तत्र सर्वत्र नास्ति. सर्वेषु वृक्षेषु अपि कपिसंयोगः नास्ति.
नास्ति, आम्.
किम् अतः तत्र
तत्र अग्रभागः भेदः अस्ति. अतः अग्रभागमेव अवच्छेदकम् इति वदामः. तत्र कपिनिष्ठ आदेयतानिरूपित वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकमेव अग्रभागम्
इति भवितुम् अर्हति. किन्तु इदानीं प्रश्नः तत्र अन्यून अनतिरिक्त वृत्तित्वरूप अवच्छेदकत्वं कस्यापि धर्मस्य अस्ति न वा इति अस्माकं मूलप्रश्नः. तत्र यदि धर्मः वृक्षत्वम् इति स्वीकुर्मः तर्हि उत्तरं किं भवति? तादृश एतादृशधर्मः अस्ति वा वृक्षत्वम्? अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वम्
इति तत्र अस्माकं प्रकृतविषये न सम्भवति.
न सम्भवति, हा, अत्र न सम्भवति. अतः वृक्ष
कपिसंयोगः न्यूना वर्तते, तत्र अग्रभागः तु बृहत् वर्तते.
हा, किन्तु इदानीम् अग्रभागः इति मनसि मास्तु. केवलं वृक्षत्वम् इति स्वीकुर्मश्चेत् तत् कार्यं करोति इति प्रश्ने सति कार्यं न करोति. कार्यं न करोति. किं कार्यं करोति इति इदानीं न जान इदानीं मास्तु. एतत् कार्यं करोति वा न करोति? वृक्षत्वं कार्यं न करोति. वृक्षत्वं तादृशम् अवच्छेदकम्
अवच्छेदकरूपेण वृक्षत्वं कदापि न भवति.
हा, एतादृशं न भवति. हा, समीचीनं. हा, अस्तु भगिनि, समीचीनं. हा, अस्तु, धन्यवादः. हा, अस्तु, इदानीम् अग्रे तर्हि तत्र विमला भगिनी अग्रे पठति वा?
आं महोदय, नमस्कारः.
नमस्कार.
अधुना वृक्षस्य अग्रभागं पश्येम. तस्मिन् अग्रभागे अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वम् अर्हति किम्? यत्र यत्र वृक्षे कपिसंयोगनिष्ठ आधीयतानिरूपिता अधिकरणता, तत्र तत्र अग्रभागः वर्तते इति वक्तुं शक्यते वा? अस्य उत्तरदानार्थं यत्र यत्र तत्र तत्र इति सम्यक्तया बोध्यम्. अग्रेपि पठनं किं की अस्तु. कपिसंयोगः वृक्षस्य अग्रभागे अस्ति इति कृत्वा अग्रभागः तस्य कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणतायाः अवच्छेदकः. अवच्छेद्या कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता. अत्र प्रश्नः अस्ति यत्र यत्र तत्र तत्र इति सम्बन्धः वर्तते वा या न इति. एकरीत्या चिन्तयितुं शक्नुमः यत् यदा तादृशी अधिकरणता अस्ति वृक्षस्य अग्रभागे एव तदा तादृश अग्रभागनाम्ना अवच्छेदकः अपि अस्ति. अन्यत्र यथा वृक्षस्य मूलभागे कृपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अपि नास्ति वृक्षस्य अग्रभागः अपि नास्ति. अनेन यत्र यत्र तत्र तत्र इति तु साधितं किल, किं चिन्तनम् इति प्रश्नः अस्ति. अत्र कुत्र अस्तु, अधुना वृक्षस्य अग्रभागं पश्येम. एतत् साधितम् एतावता यत् वृक्षत्वं पूर्णतया वृक्षत्वे अन्यून अनतिरिक्तवृत्तित्वस्वरूप अवच्छेदकत्वं नास्ति इति साधितम्. तर्हि वृक्षस्य अग्रभागे अस्ति वा इति प्रश्नः. अत्र यत्र यत्र वृक्षे कृपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता तत्र तत्र अग्रभागः वर्तते इति वक्तुं शक्यते वा इति. एतत्तु यत्र यत्र वृक्षे कृपिसंयोगनिष्ठ आधेयता निरूपिता अधिकरणता, अस्मिन् उदाहरणे तत्र अग्रभागः वर्तते इति वक्तुं वयं शक्नुमः, परन्तु सर्वेषु वृक्षेषु तथा वर्तते इति वक्तुं न शक्नुमः महोदय इति.
समीचीनं समीचीनम्. अतः तत्र इदानीं तत्र प्रथमभागे किं कृतं, केवलं तत्र अन्योन अनतिरिक्तवृत्तित्वम् इत्युक्ते किं, यत्र यत्र अधिकरणता तत्र तत्र अग्रभागः वर्तते इति एव तत्र केवलं ट्रान्स्लेशन् कृतं तावत् एव. अतः अतः इदानीम् अस्माकं कार्यं किं, यत्र यत्र तत्र तत्र इति तादृशसम्बन्धः कुत्रापि अस्ति चेत् तादृशसम्बन्धः कीदृशः इति सम्यक्तया तस्य अवगमनं भवेत्. अतः एव तत्र नूतनविषयः तत्र व्याप्य इति आसीत्, व्याप्यः व्यापकः, इदानीम् एतत् सर्वम् अग्रे आयाति. अतः तत्र समीचीनं नाम तत्र अन्येषु वृक्षेषु अपि तत्र अग्रभागः वर्तते इति अस्ति, अतः तत्र किञ्चित् चिन्तनम् अपेक्षितं खलु. अस्तु, इदानीं द्वितीयपरिच्छेदः तं पुनः पठतु भगिनि. कपिसंयोगः
अस्तु, कपिसंयोगः वृक्षस्य अग्रभागे अस्ति इति कृत्वा अग्रभागः तस्य कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणतायाः अवच्छेदकः. वयं दृष्टवन्तः, अधीतवन्तः. अवच्छेद्या किम् इत्युक्ते कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता यदस्ति वृक्षस्य अग्रभागे. अत्र प्रश्नः अस्ति यत्र यत्र तत्र तत्र इति सम्बन्धः वर्तते न वा. एकरीत्या चिन्तयितुं शक्नुमः यत् यदा तादृशी अधिकरणता अस्ति वृक्षस्य अग्रभागे एव तदा तादृशः अग्रभागनाम्ना अवच्छेदकः अपि अस्ति. अन्यत्र यथा वृक्षस्य मूलभागे कृपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अपि नास्ति वृक्षस्य अग्रभागः अपि नास्ति. अनेन यत्र यत्र तत्र तत्र इति तु साधितं किल, किं चिन्तनम् इति प्रश्नः. प्रश्नः आसीत् यत्र यत्र कपिसंयोगः कुत्र अस्ति. यत्र यत्र वृक्षे कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता तत्र तत्र अग्रभागः वर्तते इति वक्तुं शक्यते वा इति प्रश्नः आसीत्. यत्र यत्र
एकरीत्या इति आरभ्य किञ्चित् पठतु भगिनि. एकरीत्या
चिन्तयितुं शक्नुमः यत् यदा तादृशी अधिकरणा अस्ति वृक्षस्य अग्रभागे एव तदा तादृश अग्रभागनाम्ना अवच्छेदकः अपि अस्ति. इत्युक्ते अवच्छेदकः अवच्छेदकः अग्रभागः
अग्रभागः इति
तस्य नाम, तस्य नाम इति
नाम अस्ति अग्रभागः
इति वृक्षस्य अग्रभागः अवच्छेदकः अस्ति. अन्यत् यथा चिन्तने अन्यत्र यथा वृक्षस्य मूलभागे कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अपि नास्ति वृक्षस्य अग्रभागः अपि नास्ति. अनेन आम् आम् मूलभागः खलु तत्र अग्रभागः नास्ति तर्हि संयोगः एव नास्ति. अनेन यत्र यत्र तत्र तत्र इति तु साधितं किल इति प्रश्नः
खलु
आम्
नाम तत्र यत्र अग्रभागः अस्ति तत्र एव अधिकरणता अस्ति
आम्
अपि अपि तत्र अग्रभागः यत्र नास्ति नाम मूलभागे अग्रभागः
नास्ति
तत्र तु अधिकरणता अपि
नास्ति नास्ति इति आम्
तर्हि इदानीं तत्र अन्योन अनतिरिक्तवृत्तित्वम् आगतम् इति भाति खलु
वृक्षस्य अग्रभागे
हा नाम वृक्षस्य अग्रभागः अवच्छेदकः इति चिन्तयामश्चेत् तर्हि तत्र यत्र मूलभागः तत्र अधिकरणता अस्ति यत्र
तत्र अभावः अस्ति
यत्र यत्र मूलभागः अस्ति तत्र अधिकरणता अस्ति अतः तत्र न्यूनवृत्तित्वं तत्र एकम् अस्ति यत्र एकम् अस्ति अन्यत् अपि अस्ति अपि पुनः तत्र यत्र अधिकरणता अस्ति तत् तत्र मूलं तत्र तत्र
सोरि सोरि अग्रभागः किमुक्तं महोदय
क्षम्यतां तत्र यत्र अधिकरणता अस्ति तत्र अग्रभागः अस्ति अपि यत्र अग्रभागः अस्ति तत्र अपि अधिकरणता अस्ति इति अस्ति चेत् तर्हि तत्र अन्यूनातिरिक्तवृत्तित्वम्
अस्ति तर्हि अस्ति आम्
इति इदानीं चिन्तनं खलु
अस्माकम्
अस्तु अस्तु इदानीं तत् तद् भवेत् अतः तत्र अपि अग्रे पश्यामः किं भवति इदानीं तद् किन्तु एतावत् स्पष्टम् अस्ति इति मन्ये अतः नाम तत्र अनेन परिच्छेदेन तत्र इति भाति नाम तत्र अस्तु अग्रभागः इति अवच्छेदकरूपेण स्वीकुर्मश्चेत् तत्र अन्यून अनतिरिक्तवृत्तित्वरूपम् अस्ति
इति भाति
इति भाति अस्तु समीचीनम् अस्तु अग्रे तत्र समीचीनं धन्यवादः भगिनी
धन्यवादः
अग्रे तत्र योगेन्द्रमोदी अग्रे पठति वा
ततः आरभ्य
सत्यं महोदय
अथवा तथा द्वयोः अन्यून अनतिरिक्तवृत्तित्वं नास्ति चेत् किमर्थं न स्यात् कुत्रचित् अपरवृक्षस्य अग्रभागे कपि संयोगः नास्ति इति कारणं किम् तथा न अत्र प्रमुखप्रश्नः अस्ति यत् अस्मिन् एव वृक्षे यत्र कपि संयोगः अस्ति वृक्षस्य अग्रभागः कुत्र वर्तते तस्य अधिकरणं किम्
हा इति अस्तु तावत् वदतु महोदय
यत्र यत्र कपिसंयोगः अस्ति तत् अग्रभागे एव अस्ति इति विषयः अस्ति यत्र कपिसंयोगः नास्ति तत् अग्रभागः नास्ति अग्रभागे एव कपिसंयोगः अस्ति
तर्हि नाम यत्र कपिसंयोगः अस्ति तत्र अग्रभागः अस्ति यत्र अग्रभागः अस्ति तत्र कपिसंयोगः अस्ति खलु अतः तत्र यथा तत्र घटत्वस्थले घटत्वस्थले किम् उक्तवन्तः वयं यत्र घटत्वमपि प्रतियोगिता किम् उक्तवन्तः
यत्र
त्यजतु केवलं घटत्वम् अपि प्रतियोगिता तत्र किम् उक्तवन्तः
घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अस्ति
अपि यत्र यत्र प्रतियोगिता
अस्ति
न यत्र यत्र प्रतियोगिता तत्र तत्र
तत्र घटत्वम् अपि अस्ति
घटत्वम् अस्ति यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं
घटत्वम्
अत्रापि अतः एव वयं तत्र अन्यून अनतिरिक्तवृत्तित्वम् इति उक्तवन्तः खलु तत्र अत्र किमस्ति यत्र यत्र अधिकरणता तत्र तत्र संयोगः यत्र यत्र संयोगः तत्र यत्र यत्र अग्रभागः तत्र तत्र कपिसंयोगः अपि यत्र यत्र कपिसंयोगः तत्र तत्र अग्रभागः इति
अग्रभागः इति वक्तुं शक्नुमः
इति भाति खलु
इति भाति
अतः किन्तु प्रश्न उद्घाटितः अस्ति अथवा
अथवा द्वयोः अन्यून अन्यून अनतिरिक्तवृत्तित्वं नास्ति चेत् किमर्थं न स्यात्?
वयं चिन्तयामः भवति इति, किन्तु यदि न भवति तदा यदि वयं चिन्तयामः अस्तु अस्तु भवति तदा एकवारम् अस्माभिः द्रष्टव्यमस्ति, नाम चिन्तव्यमस्ति अस्तु नाम एतद् इति अहं चिन्तयामि किन्तु तत् सम्यक् न वा इति, तर्हि तत्र यदि एतत् न भवेत् चेत् अन्यत् तत्र किं भवेत्, तत्र चिन्तने तत्र कः दोषः भवेत् खलु, केन कारणेन तत्र दोषः भवेत् इति प्रश्नः उदेति खलु, अतः तत्र किमर्थं न स्यात्, तत्र वृत्तित्वम् अन्यून अनतिरिक्तवृत्तित्वं नास्ति चेत् केन कारणेन न भवति? अस्तु अग्रे, तर्हि कुत्रचित्
चेत् अपरवृक्षस्य अग्रभागे कपि संयोगः नास्ति इति कारणं किम्? तथा तु न इति नास्ति तत्र. अत्र प्रमुखप्रश्नः अस्ति यत् अस्मिन् एव वृक्षे यत्र कपि संयोगः अस्ति वृक्षस्य अग्रभागः कुत्र वर्तते, तस्य अधिकरणं किम्
इति प्रश्नः. तर्हि मूलप्रश्नः इदानीम् अस्मिन् प्रचलित प्रमुखप्रश्नः कः अस्ति,
वृक्षस्य अग्रभागः कुत्र वर्तते? अग्रभागः वृक्षे एव वर्तते.
किन्तु प्रश्नः कः अत्र, अग्रभागः कुत्र वर्तते? यतोहि वयम् अस्माकं चिन्तनं किं, यत्र यत्र अधिकरणता तत्र तत्र कपि तत्र अग्रभागः, यत्र यत्र अग्रभागः तत्र तत्र कपिसंयोगस्य अधिकरणता इति अस्माकं चिन्तनं. कपिसंयोगः कुत्र यत्र अस्ति तत्र अग्रभागः, यत्र अग्रभागः तत्र कपिसंयोगः इति चिन्तयामः. कपिसंयोगः तु वृक्षे अस्ति, वृक्षस्य अग्रभागः कुत्र अस्ति इति प्रश्नः. अस्तु, समीचीनं महोदय, अस्तु धन्यवादः. अस्तु, इदानीम् अग्रे तत्र अशोक महोदय अग्रे पठति वा?
अस्तु महोदय, अग्रभागस्य अधिकरणं वृक्षः एव नास्ति खलु, यत्र यत्र तत्र तत्र इत्यनेन कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता अग्रभागः च तयोः अधिकरणं समानं स्यात्. यत्र इत्यस्मिन् यत्र इत्युक्ते अधिकरणे केवलं विश्वे कुत्रचित् उपस्थितः इति पर्याप्तं न, यत्र यत्र तत्र तत्र इत्यनेन समानाधिकरण्यं भवेत्. अग्रभागस्य अधिकरणं वृक्षः एव नास्ति खलु, यत्र नाम
महोदय किञ्चित् अस्तु 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 वदतु महोदय, वदतु, क्षम्यताम्.
अग्रभागस्य अधिकरणं वृक्षः एव, यत्र यत्र तत्र तत्र इत्यनेन
अग्रभागस्य अधिकरणं किम् अस्ति?
अग्रभागस्य अग्रभागः वृक्षे अस्ति, अतः अग्रभागस्य अधिकरणं वृक्षः अस्ति.
किन्तु
नास्ति खलु इति प्रश्नः,
न न नास्ति नास्ति, तत्र प्रश्नः नास्ति, सत्यमेव, किमर्थमिति अग्रे उच्यते. किन्तु
अस्तु नास्ति इति उच्यते वा?
अस्तु, किमर्थमिति पश्यामः. किन्तु प्रथमतया
यत्र यत्र तत्र तत्र इत्यनेन कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता एकम्, अग्रभागः एकं, द्वयोः अधिकरणं समानं स्यात्. अतः अधिकरणतायाः अधिकरणम् अग्रभागस्य अधिकरणम् एकमेव भवितुम्
आवश्यकं भवेत् आवश्यकमस्ति. नाम यदि वयं वदामः यत्र यत्र एषः पदार्थः तत्र तत्र अन्यः पदार्थः इति वदामश्चेत् तर्हि तत्र वृत्तित्वम् एकस्मिन् स्थले भवति इति कृत्वा तत्र समानाधिकरण्यं भवेत् तत्र खलु
यत्र यत्र इत्यस्मिन् यत्र इत्युक्ते अधिकरणे केवलं विश्वे कुत्रचित् उपस्थितः इति पर्याप्तं न एकः एव अधिकरणे समान अधिकरणे द्वयोः भवितुम् आवश्यकम्
नाम अत्र एकम् एकः पदार्थः अस्ति अन्यत्र अन्यः पदार्थः अस्ति चेत् यत्र यत्र इति न वक्तुं शक्नुमः एव
कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणतायाः अधिकरणं किं वृक्षः अग्रभागस्य अधिकरणं किम् अग्रभागस्य अवयवाः अग्रभागस्य अधिकरणं वृक्षः इति वक्तुं शक्यते किम् अस्तु अहम् अवगच्छामि परं वदामि अग्रभागः स्वयं वृक्षस्य अवयवः अवयवः अवयविनी भवति अथवा अवयवी अवयवे भवति
इति प्रश्नः तावत्पर्यन्तं
पूर्वं विषयम् अवगच्छामि कति संयोगनिष्ठ आधेयतानिरूपित अधिकरणतायाः अधिकरणं वृक्ष एव अस्ति सामान्यतया वयं अवगच्छामः यत् अग्रभागः वृक्षे अस्ति किन्तु न्यायशास्ति कथं नास्ति अग्रभागः अवयवः अस्ति अवयवी अवयवे अस्ति अवयवः अवयवे नास्ति अधिकरणः अवयवः
अवयविनी न भवति तत्र अवयवी इति तत्र यस्य अवयवाः सन्ति सः अवयवी तत्र इन् नकारान्तपदम् अवयविन् इति अत एव सप्तमी भवति अवयविनि इति
अस्तु अस्तु अवयव
समीचीनं महोदय
अवयवः एव अधिकरणः अस्ति
इति नाम तत्र तन्तवः स्वीकुर्मः पटः अस्ति पटः तत्र
तन्तवः अधिकरणः आधेयः
आधेयः तत्र किमर्थं तत्र न्यायशास्त्रे एतादृशं चिन्तनम् अस्ति
यतोहि तन्तवः तन्तवानां विना पटः नास्ति पटेन विना तन्तः भवितुम्
अर्हति समीचीनं महोदय उत्तमम् उत्तमं अतः एव तत्र अधिकरणं भवति किन्तु आदेयः न भवति चेदपि अधिकरणं भवेत् इति तदा एव अधिकरणम् इति स्वीकर्तुं शक्नुमः अतः तत्र अवयवाः एव तत्र अधिकरणम् अवयवी इति यद् अस्ति तत्र यद्यपि यस्य यस्मिन् इति अर्थे अस्ति किन्तु न्यायशास्त्रे तत्र अवयवी तु आदेयः अत्र वृक्षः आदेयः अग्रभागः इति अधिकरणम् मूलभागः अपि अधिकरणं भवति अतः अतः तत्र कपिसंयोगः तस्य अधिकरणं तु वृक्षः किन्तु मूलभागस्य अधिकरणं वृक्षः नास्ति नास्ति इति अस्ति अस्तु धन्यवादः महोदय समीचीनं अस्तु तत्र इदानीं तत्र उषा भगिनी किञ्चित् स्वशब्दैः वदति वा तत्र किम् अवगतम् इति
अस्तु महोदय अग्रभागस्य अधिकरणं वृक्षः इति नास्ति इति उक्तं
न न प्रथमतया तत्र यत्र यत्र तत्र तत्र इति अस्ति चेत् तत्र तत्र समानाधिकरण्यम्
अस्ति यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटत्वम् अस्ति यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अस्ति इति चेत् अन्यून अनतिरिक्त वृत्तित्वम् अस्ति
तत्र वयम् अवगच्छामः तत्र नाम एकस्मिन् स्थले घटत्वम् अस्ति चेत् तत्र एव प्रतियोगिता अपि अस्ति
अनन्तरं वयं
घटत्वम् अपि प्रतियोगिता तयोः समानाधिकरण्यम् अस्ति खलु
अस्ति आम्
तस्य उपरि अपि अधिकमपि अस्ति किन्तु समानाधिकरणम् अस्ति
नाम
यथा तत्र कपिसंयोगः अपि कपिसंयोगस्य अभावः तयोः अपि समानाधिकरणम् अस्ति
वृक्षे एव अस्ति अधिकरणं
यत्र किन्तु तत्र यत्र यत्र तत्र तत्र इति नास्ति खलु
महोदय
किन्तु घटत्वम् अपि तत्र प्रतियोगिता तयोः मध्ये अन्योन अनतिरिक्तवृत्तित्वम् अस्ति नाम
अस्ति
एकस्मिन् स्थले एकमस्ति चेत् अन्यदपि अस्ति
अस्ति अन्यत् अपि अस्ति इदानीम् अग्रभागम् अपि पूर्वं दृष्टवन्तः वयं चर्चितवन्तः यत्र यत्र अधिकरणता अस्ति चेत् तत्र तत्र अग्रभागः अस्ति वा इति
वयं पूर्वं चिन्तितवन्तः आमाम् अग्रभागः तत्र अस्ति खलु
अस्ति इति इति परन्तु अत्र वयं अद्य परिच्छेदम् अग्रभागस्य अधिकरणं वृक्षः नास्ति इति उक्तं यतोहि यत्र यत्र इत्यस्मिन् यत्र इति अधिकरणं
यत्र यत्र अधिकरणं किम् अस्ति अधिकरणता कुत्र वर्तते
वृक्षे वर्तते
कपिसंयोगस्य अधिक तत्र तया निरूपिता अधिकरणता वृक्षे वर्तते तर्हि वृक्षः एव अधिकरणं अधिकरणतायाः इदानीं तत्र अवच्छेदकः सा एव
अवच्छेदकः इति अग्रभाग कपिनिष्ठ आदेयतायाः अवच्छेदकः
अधिकरण लघुरूपेण अधिकरणतायाः
चेतकम्
अवच्छेदकः तत्र
अग्रभागः इति
तर्हि अग्रभागः वृक्षे अस्ति वा
अग्रभागः इति अवयवः अस्ति
वृक्षस्य अवयवः अस्ति
अवयवः अस्ति
वृक्षस्य अनेके अवयवाः सन्ति तेषां एकः अवयवः अग्रभागः
अस्ति सो वृक्षे आदेयता अस्ति अग्रभागः इति अधिकरणम् इति भवति
तर्हि अग्रभागः कुत्र वर्तते इत्युक्ते अग्रभागस्य अवयवेषु अग्रभागः वर्तते यथा वृक्षः तस्य अवयवेषु वर्तते ततः अग्रभागः अपि तस्य अवयवेषु वर्तते
अग्रभागः अपि तस्य अवयवेषु वर्तते मूलभागम् अपि तस्य अवयवेषु वर्तते इति मूलभागमे अपि अधिकरणं भवेत् इति
मूलभागमपि मूलभागस्य अधिकरणं वृक्षः नास्ति तर्हि खलु
वृक्षः नास्ति मूलभागस्य
अधिकरणम् अन्यत् किमपि अस्ति किन्तु वृक्षः नास्ति अग्रभागस्य अधिकरणमपि वृक्षः
नास्ति
तर्हि कपिसंयोगनिष्ठ आदेयता निरूपित अधिकरणतायाः अधिकरणं वृक्षः किन्तु अवच्छेदकम् इति यत् चिन्तयामः मूलभागः अथवा अग्रभागः तस्य अधिकरणं तु वृक्षः नास्ति तत्र अन्तिमप्रश्नः तत्र अवयवः अवयविनी भवति अथवा अवयवी अवयवे
अवयवे भवति अवयवः अवयविनी भवति अथवा अवयवी अवयवे भवति
तर्हि
अवयवी अवयवे भवति
समीचीनं अवयवी अवयवे
भवति
तर्हि तत्र पटः अपि तत्र तन्तवः तत्र किम् इति एकवारं वदतु
पटः तन्तवः
पटः नाम वस्त्रं तन्तः
पटः नाम पटः तन्तु विना पटः नास्ति तन्तु विना पटः नास्ति पटः विना तन्तवः भवितुमर्हति दन्तवः भवति सो अवयवी इति तन्तु
न न अवयवी नाम यस्य अवयवाः भागाः
यस्य अवयवाः सन्ति
सन्ति सः अस्ति अवयवी
अवयवी
पटः एव अवयवी
ओ पटः एव अवयवी आम् आं महोदय यस्य यस्य कृते अवयवाः सन्ति
तर्हि पटः अवयवी पटः तन्तुषु वर्तते वा अथवा तन्तवः पटे वर्तते वर्तन्ते वा
यस्य कृते अवयवाः अस्ति तत् अवयवी
अतः तत्र पटे तत्र तन्तवः पटे वर्तन्ते इति चिन्तनं वा अथवा पटः तन्तुषु वर्तते इति चिन्तनं वा
पटः तन्तुषु वर्तते
हा किमर्थं
पटः अवयवी
हा किन्तु पटः किमर्थं तन्तुषु वर्तते इति वदामः तत्र न्यायशास्त्रे
पटः आदेयत
नाम
तन्तु अधिकरणतः
हा नाम यत्र तत्र आदेयः अस्ति
यत्र यत्र यत्र
न न नाम यदि तत्र तत्र आधेयं विना अधिकरणं भवितुम् अर्हति खलु नाम किमपि पदार्थः
आं महोदय आधेयं विना अधिकरणं भवितुम्
यस्मिन् किमपि नास्ति तद् भवितुम् अर्हति किन्तु आधेयः इति वदामः तर्हि तस्य सपोर्ट् तत्र किमपि भवेत् खलु अधिकरणम् आश्रय किमपि भवेत् अत्र भवती उक्तवती नाम तन्तु पटेन विना तन्तवः भवितुम् अर्हन्ति किन्तु
पटः विना तन्तवः भवितुम् अर्हति तन्तु विना पटः नास्ति इति
तत्र हा तन्तून् विना तत्र पटः न भवितुम् अर्हति अतः एव तत्र पटस्य आश्रयः तन्तवः
पटस्य आश्रयः तन्तवः इत्यनेन
अधिकरणं नाम आश्रयः नाम
तन्तवः अधिकरणं भवेत्
अतः तत्र अवयवी अवयवी अवयवे भवति अवयवे भवति अतः एतदेव समीचीनमस्ति एतत् समीचीनं नास्ति यद्यपि लौकिकरीत्या वयं वदामः अस्तु तन्तवः पटे सन्ति इति वदामः खलु
आं महोदय हा
लौकिकदृष्ट्या तन्तवः पटे सन्ति किन्तु
परन्तु पटः तन्तवे अस्ति इति
तन्तुषु अस्ति इति उक्तम् अस्तु
पटस्य अधिकरणं तन्तु एव
इति इति भवति समीचीनं भगिनि अस्तु अग्रे तत्र समीचीनं भगिनि अस्तु अग्रे चन्द्रमती भगिनी अग्रे पठति वा
कपिसंयोगनिष्ठ आधेयता निरूपद अधिकरणता भवति वृक्षे तर्हि समानाधिकरणस्य साधनार्थं द्रष्टव्यं यत् अग्रभागः वृक्षे वर्तते केनचित् सम्बन्धेन न वा संयोगसम्बन्धेन समवाय समवायसम्बन्धेन कालिकसम्बन्धेन चिन्तयतु. तादात्मीयसम्बन्धेन इदानीं खडः खडे भवति तादात्मीयसम्बन्धेन स्वस्मिन् स्वयं तादात्मीयेन भवति. स्वयं वृक्षः इति चेत् अग्रभागः वृक्षे तादात्मीयेन इति वक्तुं शक्यते वा? वृक्षे स्वस्मिन् अग्रभागः इति स्वयं वा? नास्ति. सम्पूर्णवृक्षः इति स्वयं स च सम्पूर्णवृक्षः इति स्वं स च स्वस्मिन् वृक्षे तादात्मीयेन. अग्रभागः केवलं वृक्षस्य अङ्गम्, अतः तादात्म्येन वृक्षे न. अन्ते केनापि सम्बन्धेन अग्रभागः वृक्षे नास्ति, अतः कथञ्चिदपि कपिसंयोगनिरूपिता अधिकरणतायाः अग्रभागस्य च समानाधिकरणं न भवति. तत्र समानाधिकरणं वा सामानाधिकरणं वा महोदय?
तत्र समानाधिकरणं तस्य भावः समानाधिकरण्यम् इति. अत्र समानाधिकरणम् इति एव स्वीकृतं. तत्र समानाधिकरणम् इति पदस्य भावः अस्ति
समानाधिकरण्यं.
तत्र सौन्दर्यम् इव
तद्धिदान्तरूपम् अस्ति समानाधि.
अस्तु, इदानीं
कापि संयोगनिष्ठा अभेदा निरूपिताधिकरणता भवति वृक्षे. तर्हि
इदानीं वयम् इच्छामः तत्र सामान तत्र तयोः सामानाधिकरण्यं भवेत् अधिकरणतायाः अपि अग्रभागस्य. किन्तु वयं दृष्टवन्तः तत्र अग्रभागः तु तत्र वृक्षे नास्ति, किन्तु विपरीततया वृक्षः एव अग्रभागे अस्ति, किन्तु अग्रभागः वृक्षे नास्ति इति दृष्टवन्तः खलु इदानीं. खलु
वृक्षः अग्रभागे अपि वर्तते, मूलभागे अपि वर्तते. अग्रभागः वृक्षे वर्तते इति वक्तुं न शक्यते.
न शक्यते, किन्तु यदि प्रयत्नं कुर्मः तत्र यदि वर्तेत केन सम्बन्धेन वर्तेत इति
अभिसंयोगनिष्ठा अधेदनिरूपित अधिकरणता भवति वृक्षे. तर्हि सामानाधिकरणस्य साधनार्थं द्रष्टव्यं यत् अग्रभागः सामानाधिकरणम् अस्ति वा इति द्रष्टुम् अग्रभागः किम् अस्ति इति वयं चिन्तयामः. वृक्षे वर्तते
साधनार्थं, तत्र सामानाधिकरण्यं तस्य साधनार्थं, तद् तस्य सिद्ध तद् भवेत् इति
प्राप्तुं
अग्रभागः केनचित् सम्बन्धेन वृक्षे वर्तते वा इति द्रष्टव्यम् अस्ति.
केनचित् वृक्षे केनचित् सम्बन्धेन सम्बन्धः अग्रभागः वृक्षे केनचित् सम्बन्धेन वर्तते इति वयं पश्यामः. संयोग
अन्वेषणं कुर्मः इति
संयोगसम्बन्धेन वा संयोगसम्बन्धेन वा समवायसम्बन्धेन वा कालिकसम्बन्धेन वा इति चिन्तयतु.
तत्र संयोगसम्बन्धेन अग्रभागः वृक्षे भवितुम् अर्हति वा?
संयोगसम्बन्धेन संयोगसम्बन्धेन इति वक्तुं न शक्यते.
समवायसम्बन्धेन
समवायसम्बन्धेन इति अपि न वक्तुं शक्यते.
कुत्र कुत्र समवायसम्बन्धः भवति तत्र वयं दृष्टवन्तः. तत्र जातिव्यक्तयोः अपि तत्र कुत्र कुत्र तत्र अवयव अवयवी तयोः मध्ये खलु
वृक्षः अपि अवयव अवयवी एव अवयवी
समवायसम्बन्धः एकरीत्या एव अस्ति. एकरीत्या नाम गुणद्रव्ययोः नाम रूपं घटे वर्तते समवायसम्बन्धेन. किन्तु तत्र वयं दृष्टवन्तः तत्र घटः रूपे वर्तते इति न वदामः खलु, द्रव्ये वर्तते. अतः तत्र नियतवृत्तित्वं एकस्मिन् दिशि एव गच्छति सम्बन्धः खलु, समवायसम्बन्धः. गुणः
गुणः द्रव्ये वर्तते, द्रव्यं गुणे वर्तते इति वक्तुं न शक्यते. गुणः द्रव्ये वर्तते.
किन्तु तत्र यदि संयोगः सम्बन्धः अस्ति तत्र नाम तत्र हस्त हस्त उत्पीठिका तत्र वयं हस्तस्य उत्पीठिका तत्र सम्बन्धः तत्र अस्मिन् दिशि अपि गच्छति अन्यस्मिन् विपरीतिथि अपि गच्छति. किन्तु अत्र समयसम्बन्धः तादृशः नास्ति. तत्र एकस्मिन् एकस्यां दिशि एव गच्छति. अतः तत्र यत्र घटः अस्ति कपालः अस्ति वयं किं वदामः, घटः समवायसम्बन्धेन कपाले वर्तते तत्र. अतः तत्र घटः अस्ति अवयवी, कपालः अस्ति अवयवः, तर्हि अवयवी अवयवे वर्तते तत्र समवायसम्बन्धेन. किन्तु कपालः घटे समवायसम्बन्धेन वर्तते इति न वदामः.
एक मार्गे एव
एकस्म्यां दिशि
एकस्म्यां दिशि
एव गच्छति. अतः तत्र वृक्षः अग्रभागे समवायसम्बन्धेन वर्तते इति वदामः, वृक्षः अग्रभागे. किन्तु अग्रभागः वृक्षे समवायसम्बन्धेन अस्ति इति न वक्तुं शक्नुमः. अतः तत्र समवायसम्बन्धः अपि न भवितुम् अर्हति, संयोगसम्बन्धः अपि न भवति, कालिकसम्बन्धः तत्र
वृक्षः अग्रभागे समवायसम्बन्धेन वर्तते एव. अतः तद् वक्तुं न शक्यते वा?
न वक्तुं शक्नुमः. यतोहि तत्र यदि तादृशं कुर्मः तदा किं भवति, तर्हि तत्र किं गुणः तत्र द्रव्ये समयसम्बन्धेन वर्तते, तर्हि तत्र द्रव्यं गुणे संयोगसम्बन्धेन वर्तते इति भवति वा?
दिशा द्वयमपि वक्तुम् आवश्यकमस्ति वा?
न न किन्तु अत्र एकस्यां दिशि तत्र समयसम्बन्धः अस्ति. यदि संयोगसम्बन्धः भवति चेत् अन्यस्यां दिशि अपि संयोगसम्बन्धः एव भवेत् खलु. खलु
अस्तु,
हस्तः अपि उत्पीठिका तत्र संयोगसम्बन्धः, तत्र हस्तः संयोगसम्बन्धेन उत्पीठिकायाम् अस्ति इति यदि वदामः, तर्हि तत्र किं भवति, उत्पीठिका अपि संयोगसम्बन्धेन हस्ते वर्तते इति अपि वक्तुं शक्नुमः. अथवा तत्र खलु नाम संयोगसम्बन्धः तत्र कुत्रचित् एकस्यां दिशि गच्छति अन्यस्यां दिशि अपि गच्छति, किन्तु तत्र दिशिद्वयो मध्ये अपि संयोगसम्बन्धः एव भवति खलु. एकस्यां दिशि समयसम्बन्धः अस्ति, अतः कथम् अन्यस्यां दिशि संयोगसम्बन्धः भवेत्? अतः संयोगसम्बन्धः न चलति तत्र.
समवायसम्बन्धः समवाय
इदानीं कालिकसम्बन्धः कार्यं करोति वा अत्र?
न कालिकसम्बन्धेन इति वक्तुं न शक्यते.
किमर्थम्?
एकस्मिन् काले एव वर्तते इति न वक्तुं शक्यते. सर्व कालिकसम्बन्धेन सर्वदा वक्तुम् इति एव कालिकसम्बन्धः भवति. किन्तु तदपि वक्तुं न शक्यते.
हा नाम यतोहि तत्र
किन्तु
अग्रभागः वृक्षः विना तत्र अग्रभागः भवितुम् अर्हति, अवयवः भवितुम् अर्हति. अतः तत्र समानकाले द्वयमपि अस्ति इति न वक्तुं शक्नुमः खलु. तत्र तन्तवः सन्ति किन्तु पटः नास्ति इति कृत्वा तत्र कालिकसम्बन्धः तयोः मध्ये अस्ति इति न वक्तुं शक्नुमः. अतः यदि सर्वं त्यजामः एकमेव अस्ति तत्र तादात्म्यसम्बन्धः.
तादात्म्यसम्बन्धेन इदानीं खडः खडे भवति तादात्म्यसम्बन्धेन स्वस्मिन् स्वं तादात्म्येन भवति.
सर्वे पदार्थाः यः कोऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति इति वयम् उक्तवन्तः पूर्वं खलु. किमर्थम् उक्तवन्तः तादात्म्यसम्बन्धस्य आवश्यकता कुत्र आसीत् इति स्मरति वा? अन्य कोऽपि वदेत् तत्र नरसिंह महोदय, तादात्म्यसम्बन्धस्य आवश्यकता कुत्र आसीत्? किमर्थं तादात्म्यसम्बन्धः अस्ति इति चिन्तितवन्तः वयम्? अस्तु, अन्य कोऽपि वदति वा किमर्थं तादात्म्यसम्बन्धः अस्ति इति तत्र अङ्गीकृतवन्तः वयम्? तत्र घटः अस्ति, घटस्य कारणं तत्र कपालः खलु. घटस्य कारणं कपालः खलु. तत्र कारणम् अपि कार्यं, कपालः कारणं, घटः कार्यं, तत्र तयोः मध्ये श्रूयते वा? अस्तु अस्तु. तत्र कारणकार्ययोः मध्ये तत्र कीदृश तत्र नियमः आसन् कोऽपि स्मरति वा?
कार्याधिकरणे भवेत् सर्वदा भवेत्, कार्योत्पत्तेः पूर्वक्षणे
भवेत्.
तद्विषये तद्विषये वयं तादात्म्यसम्बन्धस्य विषये पठितवन्तः महोदय.
तर्हि घटस्य अधिकरणं कपालः. इदानीं यदि वयं कपालः कारणम् इति वक्तुम् इच्छामः तर्हि किं भवेत्? कपालः अपि
कपालपि तत्र भवेत्, तत्र केन सम्बन्धेन भवति?
अतः एव तत्र कपालः तादात्म्यसम्बन्धेन, अतः एव तत्र स्वं तत्र स्वस्मिन् स्वं तादात्म्येन भवति इति उक्तम्. समीचीनम्. अस्तु,
पुनः उक्तवान् वदतु वा भवान्?
तत्र नाम वयं तत्र कारणस्य निकषत्रयम् आसीत्. यदि वयं किमपि कारणमिति वक्तुम् इच्छामः तदा वयम् उक्तवन्तः तत्र कार्याधिकरणे कारणं भवेत्, पूर्वस्मिन् क्षणे भवेत् अपि, कार्यस्य उत्पत्तेः पूर्वस्मिन् क्षणे भवेत् अपि, सर्वदा भवेत् इति अधिकरणे. इदानीं तत्र घटस्य कारणं कपालः इति स्वीकुर्मः, इति अङ्गीकुर्मः, यतोहि कपालं विना तत्र घटस्य उत्पादनं न भवति. तर्हि अपि घटः कपाले समवायसम्बन्धेन अस्ति, यतोहि तत्र घटः अवयवी, कपालः अवयवः, अतः तत्र घटः कपाले समवायसम्बन्धेन अस्ति. कारणं कपालः इति चिन्तयामः तर्हि कपालः अपि घटस्य कार्यस्य अधिकरणे कपाले भवेत्. तर्हि कपालः अपि कपाले भवेत्. अत्र प्रश्नः उदेति केन सम्बन्धेन कपालः घटस्य अधिकरणे अस्ति? यतोहि अधिकरणमपि कपालः अस्ति, कपालः स्वस्मिन् केन सम्बन्धेन अस्ति इत्युक्ते तत्र तादात्म्यसम्बन्धः इति स्वीकृतवन्तः तत्र.
अस्तु महोदय,
इति अस्ति. अतः तत्र तादात्म्यसम्बन्धः अत्र कार्यं करोति वा इति प्रश्नः. नाम तत्र अग्रभागः वृक्षे तादात्म्यसम्बन्धेन अस्ति इति प्रश्नः तत्तु न भवति, यतोहि तत्र अग्रभागः अपि वृक्षः भिन्नपदार्थाः, तत्र अतः स्वस्मिन् इति न वक्तुं शक्नुमः इति अत्र उक्तं. किन्तु अग्रिमवर्गे एतत् पठित्वा तदनन्तरम् अग्रे सरामः. तत्र प्रायशः तत्र अग्रिमे सप्ताहे तत्र बहु किमपि अस्ति. अस्तु अस्तु अस्तु, अहं चिन्तितवान् प्रायशः तत्र समापयितुं शक्नुमः इति, पश्यामः. अस्तु तर्हि, अत्र बहु किमपि अद्य अतीतवन्तः, समीचीनमेव अस्ति. अस्तु तर्हि अत्र विरमामः. धन्यवादः, नमस्कारः. धन्यवादः.